अथ श्रीपरमेश्वरस्तोत्रम् जगदीश सुदीश भवेश विभो परमेश परात्परभूत पितः प्रणतम् पतितम् हतबुद्धिबलम् जनतारणतारयता पितकम् गुणहीन सुदीन मलीनमतिम् त्वयि पातरि दातरि चापरतिम् तमसारजसावृतवृत्तिमिमम् जनतारणतारयता पितकम् मम जीवनमीनमिमम् पतितम् मरुगोरभुवीह सुवीहमहो करुणाब्धिचलोर्मिजलानयनम् जनतारणतारयता पितकम् भववारणकारणकर्म ततौ भवसिन्धुजले शिवमग्नमतः करुणाम् च समर्प्य धरिम् त्वरितम् जनतारणतारयता पितकम् अविनाश्य जनुर्मम पुण्यरुचे दुरितौघभरैः परिपूर्णभुवः सुखगण्यमगण्यमगुण्यरुचिम् जनतारणतारयता पितकम् भवकारकनारकहारकहे भवतारकपादकतारकहे हरशङ्करकिङ्करकर्मचयम् जनतारणतारयता पितकम् शिरश्चिरमस्मि सुधामितमेच्युतचिन्मयदेहि वदान्यवर अतिमोहवशेन विनष्टकृतम् जनतारणतारयता पितकम् प्रणमामि नमामि नमामि भवम् भवजन्मकृतिप्रनिषूदनकम् गुणहीनमनन्तमिदम् शरणम् जनतारणतारयता पितकम्